उदाहारः मेघदूतस्य तत्कथानकस्य चोपजीव्यं विद्वन्मण्डलाखण्डलायमानस्य तत्र भवतो बागदेवताविलासस्य कविकुलगुरोः कालिदासस्य मेघदूताभिधानं भुवनप्रथितं काव्यरत्नाम् उद्दिश्य साम्प्रतं द्वित्राः अभिनवाः शब्दाः प्रस्तूयन्ते। मेघदूते स्वानुष्ठेयकार्यप्रमादजायमानभर्तृशापाद्वर्षभोग्यप्रियाविश्लेषितस्य कश्चिद् यक्षस्य मेघं सम्बोध्य स्ववल्लभार्थं प्रेषणीयं सन्देशकथनं प्रदर्शितं महाकविना। इत्थं चात्र कविनिबद्धवक्त्रा मध्यभारत रामगिरियासमस्थेन यक्षेण अलकापुर्यां विद्यमानायाः प्रियायाः सकाशे सन्देशप्रेषणार्थं मेघस्यासादनाय मार्गम् अन्तरापतितानां तत्तद्देशानां यादृशं विवरणं कृतं तेनास्य वैचक्षण्यक्षणस्य कविवरस्य भौगोलिकज्ञाने साधारणाधीषणा वैभवं स्फुटं भवति। प्रसादगुणसंलङ्कृतेऽत्र काव्ये यथा रसध्वन्यलङ्काराणामुत्कर्षो दृश्यते तेन पदे पदे सहृदयहृदय प्रमोदप्रकर्ष आविर्भवति। अस्य लौकायत्वेऽप्यन्तर्जगतो बहिर्जगतश्च सूक्ष्मचित्रोपन्यासे महाकविना यादृशं नैपुण्यमुद्भाषितं तेन साहित्यसंसारे कृतो वरोयमनुपमानं महत्त्वं बिभर्ति। अत्र विप्लम्बशृङ्गारः स च प्रवासात्मकः परिणामे सम्भोगपर्यवसायी च प्रवासश्च शापमूलक इति व्यक्तं प्रतीयते। काव्यमिदं खण्डकाव्यलक्षणाक्रान्तं खण्डकाव्यलक्षणं यथा साहित्यदर्पणे खण्डकाव्यं भवेत् काव्यस्यैकदेशानुसारी च इति परं काव्यादर्शप्रणेत्रदण्ड्याचार्यमते महाकाव्यमिदं मेघदूतानुकरणेन भूमण्डले प्रतिभामण्डितानि बहूनि काव्यानि दूतकाव्यानि च स्थितमलभन्त। अद्य यावन्मेघदूतानुकृत्या प्रणीतं काव्यषट्कम् अस्ति इति श्रीमन्महाराजस्य रामवर्मणः कथनं परं मौफ्रेक्ट महाशयस्य सम्मतौ तादृशं ग्रन्थदशकं विलसति। तत्र च द्वादश शतकस्थेन धौयीकविना विरचितं पवनदूतं प्राचीनतमम् एवं काव्यमाला या त्रयोदशे खण्डे परमपि पवनदूतं लोचनगोचरी भवति। त्रयोदशशतकेशं जातेन वेदान्तदेशिकेन मेघदूतम् अनुकृत्य हंससन्देशः अभिधानं काव्यं व्यरचि। इत्थमेव पञ्चदश्यां शताब्द्यां रूपगोस्वामी हंसदूतसप्तदश्यां शताब्द्यां कृष्णानन्दसार्वभौमः पदाङ्कदूतश्च प्रणीयख्यातिं प्रापतुः। मेघदूतं कविकुलगुरोः कालिदासस्याद्याः कृतिरिति बहूनां प्रतिभावतां विपश्चितां परामर्शः। शर्मण्य वेकटमे जर्मनी देशीयेन शीलराख्येन कवित्रा मेरिया स्टुआर्ट नामक नाटके स्काट देशराज्ञः मेघदूतस्यैव सन्देशप्रेषणम् उपनिबद्धं। ततः पूर्वं शामण्यमहाकविना गेटे विपश्चिता मेघदूतस्य प्रशंसितत्वात् शीलरकवेरयं व्यापारोऽपि मेघदूतानुकृतिमूलक इति सम्भावयितुं पार्यते। साम्प्रतमस्य काव्यरत्नस्य तत्प्रणेतुः कालिदासस्य च निरतसाधारणवैशिष्ट्योपपादनं प्रकृतिनिबद्धस्य समीहितविषयो न अतस्माभिरिदमेव प्रदर्शनीयं। यदस्य काव्यरत्नस्य तत्कथानकस्य चोद्गमः कथङ्कारः सञ्जात इति हनुमन्मुखेन सीतार्थं रामप्रहितसन्देहस्यानुकरणनिद्धं काव्यं विरचीति बहूनां विदुषां परामर्शः। तत्र यक्षोपरि भर्तृशापश्चोद्गमस्तु ब्रह्मैवर्तपुराणान्तर्गताद् आषाढकृष्णैकादशी महात्म्यात् सम्भाव्यते। तस्या यावर्तोषस्यनुकृत्या महाकविना मेघदूतपुंभाषितं सोऽसो धस्ताद्नूद्यते। योगिन्येकादशी महात्म्योद्घात रूपेण भगवान योगेश्वरः कृष्णो धर्मराजम कथयत्। अलकाधिपतिर्नाम्ना कुबेरः शिवपूजकः तस्यासीत् पुष्पवटको हेममालीति नामतः। तस्य पत्नी सुरूपासीत् विशालाक्षीति नामतः। सतस्यां स्नेहसंयुक्तः कामशापवशं गतः। मानसात् पुष्पनिचयमानीय स्वगृहे स्थितः। पत्नी प्रेम समायुक्तो न कुबेरालयं गतः। कुबेरो देवसदने करोति शिवपूजनं। मध्याह्नसमये राजन् पुष्पाणि प्रसमीक्षते। हेममाली स्वभवने रमते कान्तया सह। यक्षराट् प्रत्युवाचाथ कालातिक्रमकोपितः। कस्मान्नायाति भो यक्षा हेममाली दुरात्मान् निश्चयः क्रेतामस्य। प्रत्युवाच पुनः पुनः यक्षाऊचुः वनिता कामको गेहे रमते स्वेच्छया नृप। तेषां वाक्यं समाकर्ण्य कुबेरः कोपपूरितः। आह्वयामास तं तूर्णं वटुकं हेममालिनं। ज्ञात्वा कालात्यं सोऽपि भवद्व्याकुललोचनः। आजगाम नमस्कृत्य कुबेरस्याग्रतस्थितः। तं दृष्ट्वा दन्दः क्रुद्धः कोपसंरक्तलोचनः। प्रत्युवाच ऋषभविष्टः कोपाद्विस्फुरिताधरः। धनुवाच रे पाप दुष्ट दुर्वृत्त कृतवान्दवहेलनम्। अतो भो स्वित्रयुक्तो वियुक्तः कान्तया सह। अस्मात् स्थानात् पदश्वतो गच्छ स्थानमथाधमम् इत्युक्ते वचने तेन तस्मात् स्थानात् पपात सः। इत्युक्त्या स्पष्टमेव प्रतीते महाकविना पुराणस्यैतस्मात् दशादेव स्वकृतौ सारांश उपात्तः। अलकापुरी वास्तव्यस्य यक्षस्य शापवशात् चित्रकूटस्थितिर्मेघायालकापुरीस्थ स्वप्रियार्थं सन्देश दानपीम एवार्थं सूचयति। अतएव अस्मात् स्थानात् पदस्वतो गच्छ स्थानं धाधमम् इति कुबेरशापस्तथा तस्मात् स्थानात् पपात सः इति श्रीकृष्णवाक्यं च सङ्गच्छते। पौराणिक्या ऐतिहासिक्याश्च कथाया महाकवयो यथा परिवर्तनं कुर्वन्ति तथैवात्राप्युपयोगाभावात् चित्ररोगस्य चर्चा महाकविना न व्यधायी। कान्ताभियुक्तिसूचनं तु कृतं तथैवास्य सन्देशस्योपजीव्यत्वात् वियोगकालाविधिरपि कविकल्पितः। एकादशीवृतादयो अनुपयोगिनो अशास्तु कविना परित्यक्ताः। न हि महाकवये इति वृत्तनिर्वहणभारतपरायणा भवन्तीतिहासपुराणादिभ्य एव तत्सिद्धेः। तथैव तत्र महात्म्ये छायायां पीडिततनुर्निदाधेत्यन्तपीडितः शिवपूजाप्रभावेण श्रुतस्तस्य न गच्छति इत्युल्लेखेन ग्रीष्मतस्तस्य कान्ताविरहद्युक्रमो दृश्यते। अत्र काव्ये तु कतिचिन्मासान् नीत्वा षाढमासप्रथमदिवसतः कान्तासन्देशप्रेषणोपक्रमोकारी यक्षेण अन्ततो विपर्यासे अप्युल्लेख्याव्यापारस्तु ग्रीष्मारम्भत एवोपक्रमते। भूलोकपतितस्यापि तस्य स्मृतिध्वंसविरहोऽपि प्रियासन्देशप्रेषणानुगुण एवेत्यत्र कस्य सहृद हृदयस्य द्वापरपरत्वं सञ्जायेत्। इत्थञ्च निश्चप्रचं शक्यते वक्तुं मेघदूतकथानकस्योपजीव्यो ब्रह्मवैवर्तपुराणस्यैकदेश इति। मेघदूतस्य चरित्रवर्धन्याख्यव्याख्याकारेण तु कुबेरो मानससरोवरकनकसरोजसंरक्षणार्थं कञ्चिद्यक्षं समादिदेश। क्षणमपि कान्ताविरहाक्षमः स च कथञ्चिद्यामादितयं सरोरक्षणपरायणो भूत्वा तावत्येव काले रजनीयाते इति मन्वानः कान्तोपकण्ठं येव। तत्रैवान्तरे दिग्जैस्तत्सरसो दूष्यमाणत्वात् कुपितेन कुबेरेण स यक्षः शप्त इति लिखितमस्ति। तस्य किं बीजम् इति तत्त्वतो न विद्मः। संस्कृतसन्देशः चतुर्थोऽङ्कः विक्रम सम्वत् 2010 श्रवण शुक्ल एकादशी काष्ठमंडप नेपाल उपनिबंधा शेषराज शर्मा रिग्मी।